श्रद्धेनमस्कारः शान्तकौमुद्याः हनन्तपुल्लिङ्गप्रकरणे एकादश पाठः सेप्टेम्बर् मासस्य विंशतिः दिनाङ्कः केनाक्षरसमां नायम् अधिगम्य महेश्वरात् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः पक्षकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरि ओम् कृष्णन् महोदय हा श्रुतं शक्यते हरि ओम् श्रूयते अस्तु आरम्भं कुर्मः हयवरट् लण् नियमगणनं कपै शशसर इति माहेश्वराणि सूत्राणि अथ प्रथमोऽध्यायः प्रथमः पादः सिद्धिराजैश्च अदेन गुणः इको गुणवृद्धि न धातुलोप अर्धधातुके नीति च दीधीरेवीताम् हलोनन्तरात् संयोगः मुखनासिकावचनोऽनुनासिकः तुल्यास्य प्रयत्नं सवर्णम् ధనౌ ఈ దూదే ద్వివచనం ప్రదృశ్యం అద సోమాత్ శే నిపాత ఏకా జనాన్ ఓత్ సంబుద్ధౌ శాకల్యస్య ఇతావనాశే పుణ్యః పూ ఈదూతౌ చ సప్తం యచ్ఛే దాధా ఖ్వరాప్ ఆద్యంతవదేకస్మిన్ సరప్తమపౌఘః బహుగణవతుడతి సంఖ్యా శ్నాంతాశత్ తవతు నిష్టా సర్వాదీని సర్వనామాని విభాషా దిక్సమాసే బహువ్రీహౌ తృతీయా సమాసే ద్వంద్వే చ విభాషా జసి ప్రథమ చరమ తయాల్పార్థ కతిపయ నేమాశ్చ పూర్వ పరావర దక్షిణోత్తర అపరాధరాణి వ్యవస్థాయాం అసంజ్ఞాయాం స్వం అజ్ఞాతి ధనాఖ్యాయాం అంతరం బహిర్యోగోపసంవ్యానయోః స్వరాది నిపాతం అవ్యయం సద్ధితశ్చ అసర్వ విభక్తిః శృణ్వే దంతః స్వాతోసున్ కసునః అవ్యయీభావశ్చ ओके धन्यवाद। सिद्धान्तकौमुद्यम् मकारान्तः पुल्लिङ्गः दीयन्ते। मकारान्तः पुल्लिङ्गः कठिन शब्दः सदृष्टः। कठिन शब्दे सर्वनामस्थानेषु परेषु कार्यद्वयं विशिष्यरहितम्। इतोपि सर्वनामस्थाने इत्यनेन इकारस्य अकारादेशः, एवं थोन्थः इति फकारस्य ऊर्ध्वादेशः इत्येतत्। तत्रापि पुत्रत्वे पदे एताभ्यां कार्याभ्यां सह पथिवसिरु कुक्षाम् आत् इति सूत्रेण अन्तादेशः आकारस्थीयते। सर्वं मिलित्वा पन्थाः इति सुप्रत्ययरूपम्। अन्येषु सर्वनामस्थानेषु इकारस्य अकारादेशे ऊर्ध्वादेशे फकारस्य च कृते उपधादीर्थः क्रियते। तेन पन्थानौ पन्थानः पन्थानौ पन्थानौ इति रूपाणि। धसंज्ञायां सत्यं शस्त्रधतिषु अजादिषु प्रत्ययेषु तेः लोपः क्रियते। भस्यतेर्लोपः नाम अत्र इन् इत्यस्य लोपः भवति। पथिन् मथिन् बुभुक्षिन् इति त्रिषु अपि तेन पथिन् अस् पथ अस् पथस् पथः पथा इत्यादि। पदसंज्ञायां तु शस्त्रभृतिषु हलादिषु प्रत्ययेषु नकारस्य लोपः क्रियते। पथिभ्यां पथिभिः इति भवति। इदानीं पक्षिशब्दस्य स्त्रीत्वे नपुंसकत्वे च किं भवति इति कश्चन विचारः क्रियते दीक्षितैः। पथिं शब्दस्य स्त्रियां नान्तलक्षणे नीति भत्वात् तिलोपः उच्यते। स्त्रीलिङ्गे कथं प्रयोगः इत्यपि प्रश्नः इत्युक्ते पथिं शब्दः नित्यं पुल्लिङ्ग एव, किन्तु समाजे कृते यथा शोभनः पन्थाः यस्यास्ता इति अन्यपदार्थे बहुव्रीहौ कृते सुपथिन् इति भवति। शोभनः पन्थाः यस्यास्ता इति सुपथिन् इति प्रातिपदिकम्। अस्य स्त्रीप्रदक्षायां रुग्णेभ्यो नीप् नान्तलक्षणः, ऋकारान्तेभ्यः नान्तेभ्यश्च नीप् प्रत्ययः स्यात् इति सूत्रेण नीप् भवति। नीप् प्रत्यये इकार एव शिष्यते। सुपथिन् इ इत्यस्ति, अत्रापि भसंज्ञा भवति। सप्रत्ययावधिषु यकारादिषु अजादिषु च स्वादिषु इति उच्यते। अतः स्वादिप्रत्ययः अयमपि अजादिः, तेन अत्रापि भसंज्ञा विद्यते। भसंज्ञायां सत्यां भस्यतेर्लोपः इत्यनेन त्रिलोपे सुपथ् इ सुपथी इति प्रातिपदिकम्। सुपथी इति इकारान्तं प्रातिपदिकं। गौरी अथवा नदी शब्दवत् भवति। सुपथी सुपथ्यौ सुपथ्यः इत्यादि रीत्या। एवं मथिन् शब्दस्य स्त्रियां सुमथी नगरी इति भवति। अन्धभुक्षी सेना। रुभुक्षिन् शब्दस्य स्त्रियां न विद्यते रुभुक्षाः यस्यास्ता इति। यस्यां सेनायाम् इन्द्रः नास्ति, इन्द्ररहिता सेना इत्यर्थे अनुभुक्षी सेना। सर्वत्र स्त्रीलिङ्गे करणीये नीप् प्रत्ययो भवति। नीप् प्रत्यये परतः तिलोपश्च भवति। इकारान्तस्य सम्पन्ने प्रक्रिया तु समाना भवति। उच्यताम् अभिचलनि संशयः अस्ति। एक्साक्टली पदांग कार्य पदम पदाधिकारे अंगाधिकारे कमजन अंगाधिकार जनरल रूल देर आर एक्सेप्शन वॉट इज द एक्सेप्शन बट जनरल केसेस प्राधान्य उपसर्जने न only in pradhana and where does it apply in upasarjana it depends on the vyakhyana that's why dikshita shows wherever it applies so immediately afterward we the next shabda we are dealing with panchan where there are some karyas which he says is apply when there is pradhanya and upasarjana na bhavati arthat bahuvrihi samase na bhavati iti uchyate kintu samanyatah sadan tasya bhavatyeva sadyapi bhavati प्राधान्य उपसर्जने उत्सर्ग इट इज द जनरल रूल सो देर आर केसेस वेर इट विल नॉट अप्लाई सो सच अपवादत्वेन ज्ञातव्यम् वेर विल इट नॉट अप्लाई इति ज्ञातव्यम् तथा किमपि नास्ति चेत् भवति इत्येव नियमः देर इज नथिंग स्पेशल विच प्रिवेंट्स इट्स एप्लीकेशन इन उपसर्जन और इन तदंत सो जनरल कार्य विल हैपन As long as it is in for any pada or for any anga, sasyaapi bhavati, tadam sasyaapi bhavati. It is not the case with pratyaya. If it is a pratyaya vidhana, then it will be only for that particular thing. So this is for padadhikara and angadhikara. There is one adhikara called angasya, from 641 to 74, whatever, the end of it, and again padasya in the 8th chapter. So in both these adhikaras, tadantaviti is the general rule. There are exceptions. Napumsakalinge kim bhavati? Evameva samase bahuvrihi samase kate napumsakalinge. Atmam napumsake na bhavati nanumatangasya iti pratyaya lakshana nishedhat. Pathimathirbhuksam asitvarena supratyaya pare pathim shabdasya atmam vidhiyate. నపుంసకలింగే శోభన పంథాంసకలింగస్య యథా విశేషణం క్రియత పునః సుపథున్న ఇది ప్రాతిపదికం సుప్రత్యయః నపుంసకలింగే సర్వదా స్వమోర్నపుంసకాత్ ఇత్యనేన సుప్రత్యయస్య లుద్భవతి అస్ వి సా ఇన్ వారీదసి ఎత్సెట్ర అకారాంతస్యేత అమాదేశః అన్యే చేత లుద్భవతి సుప్రత్యయస్య అంతస్యేత్ర సుప్ లుకాలుక్తః ततः ननोपस्यादिकान्तस्य नकारोऽपि लुप्यते सुपथि इति रूपम् अत्र प्रश्नः सुपथिन् इत्यर्थः नकारस्य स्थाने आत्मं भवति वा इति प्रश्नः आत्मं न भवति कुतो न भवति न लुमताङ्गस्य लुमतालुप्ते अङ्गकार्यं न स्यात् इति उच्यते सो वेन् समथिङ्ग् हेस् बीन् डिलीटेड् बै लुक् द सू के नाट् बि ब्राट् बेक् बै प्रत्यय लक्षण सत्यलक्षणं नास्ति चेत् सुप्रत्यये परे तौ पथिमथे भुक्ताम् आत् इति उच्यते अतः आत्मं न भवति सुप्रत्ययस्य अभावात् इकारादेशः कुतो न भवति है डु वि नाट् डु इतोत् सर्वनामस्थाने अण्ड् कोऽन्थः Is this saying Atmam na bhavati? Why do we not do Ikarasya Akara Desha or Intha? ഉപദേശിക്കുന്നതിൽ കിമർത്ഥം ഇതോച്ചരണാമസ്ഥാനെ not really. There's nothing of a first thought which would prevent that. That is true. I mean, nothing actually happens. I'm asking why. Why should you, I mean, before doing Nalopa itself, you can do Akara and then do, say, Anthalesha and then do Nalopa, whatever. Some basic concept. We are in Napumsakalinga. Napumsakalinga, Saranamasthanapum, Nasti. It was Saranamasthane and Thontaha, place for. Exactly, just and just. She Saranamasthanam, Napumsakalinga. So, Saranamasthana, there is no Saranamasthana, and hence there is not even a question of applying it was Saranamasthane or Thontaha. Napumsakalinga, Saranamasthanatum, Nasti. So, Supratayasya. Supati, Vanam. സത്രാവസ്തു ഏകവചന സുപഥി ഇത്യേവ രൂപം സംബുദ്ധ നപുംസകാനാം നലോപോ വാ വാച്യഃ ഇത്യേകം വാക്യം. What happens is the സുപഥി is in സംബോധന സംബോധന പ്രഥമായാം കിം ഭവതി ഇതി ചേത് വികൽപേന നലോപോ ഭവതി ഇതി ഉച്യതേ ഹേ സുപഥി ഹേ സുപഥി ഇതി രൂപദ്വയം. ഇതാനും പ്രശ്ന ഹേ സുപഥി നലോപേ കൃത്യ നലോപക്ഷേ സമ്പുദ്ധ ഗുണോ ഭവതി വാ ഇതി പ്രശ്ന. യഥാ ഹേ ഹരി സു ഇതി സ്ഥിതി ഹേ ഹരേ സു ഇതി ഭവതി ഹേ സകാ സമ്പുദ്ധേ സമ്പുദ്ധേ ലോപഃ. അത്രാപി സമ്പുദ്ധ ഇക്കാരസ്യ ഗുണോ ഭവതി വാ ഇതി പ്രശ്ന. നലോപ സുപ്സര സംജ്ഞാ സുദ്ധിഷു കൃതി ഇതി നലോപസ്യ അസിദ്ധത്വാത്. സുഗ്വിധൌ സ്വരവിധൌ സംയാവിധൌ കൃതി സുഗ്വിധൌ ച നലോപഃ അസിദ്ധഃ ഇത്യുച്യതേ അയം സുഗ്വിധിഃ. സോ വി ആർ ഡൂയിംഗ് എ ഗുണ ദെൻ ഫോളോഡ് ബൈ സംബുദ്ധി ഇറ്റ് ഹാപ്പൻസ് ടു ബി സുഗ്വിധി. സുഗ്വിധൌ നലോപസ്യ അസിദ്ധത്വാത് സസ്യസ്യ ഗുണഃ ന ഭവതി. സോ ഹേ സുപഥി വിൽ റിമെയിൻ ആസ് ഇറ്റ് ഇസ്. ദേർ ഇസ് നോ ഗുണ ബിക്കോസ് അക്കോർഡിംഗ് ടു ഐ മീൻ ആസ് ഫാർ ആസ് സംബുദ്ധൌ ച ഇസ് കൺസേൺഡ് ദേർ ഇസ് എ മകാര ഹിയർ നലോപഃ അസിദ്ധഃ. ദിവസനെ ഭത്വാത് വിലോപഃ സുപഥിൻ ഔ ഇത്യസ്തി. അത്രാപി പുനഃ സർവനാമസ്ഥാന സംജ്ഞാ നാസ്തി. സർവനാമസ്ഥാന സംജ്ഞാ നാസ്തി ചേത് അഗാധി പ്രത്യയഃ ഭ സംജ്ഞാ ഭവതി. അസർവനാമസ്ഥാനേഷു ഉപപ്രത്യയാദിഷു എസ്കാരാദിഷു അഗാധിഷു തസ്വാദിഷു. സോ ദീസ് ത്രീ ആർ മ്യൂച്വലി എക്സ്ക്ലൂസീവ്. ദേർ ക്യാൻ ബി സർവനാമസ്ഥാന ഓർ ഭ ഓർ പദ. അത്ര ഭസംജ്ഞാ അസ്തി ചേത് ഔ ഔങ് നപുംസകാത്യേന ഷീ ആദേശ ഭസ്യ ടേർലോപഃ ഇത്യനേന ലോപേ സുപഥ് ഇ സുപഥീ ഭവതി. സുപഥി സുപഥീ ഷൌ തു സർവനാമസ്ഥാനത്വാത് ഷി ദൃശ്യതോ ഷിഹി ഷീ ഭവതി. സോ സർവനാമസ്ഥാനത്വം അസ്തി ഇത്യേന കിം ഭവതി സുപഥിന് അസ്തി അതഃ ജസ് കരണീയഃ വെദർ ഇറ്റ് ഈസ് ജസ് ഓർ ഷസ് ഇറ്റ്സ് ദ സെയിം പ്രക്രിയ. ഋഷി പ്രത്യയഃ ജശ്യസോ ഷിഹി ഇത്യനേന ഇതോത്തരനാമസ്ഥാനേ അത്ര ഭവതി. സുപഥന് ഇ സ്ഥോന്തഃ ഇതി ആദേശോപി ഭവതി. സുപന്ഥന് ഇ സർവനാമസ്ഥാനേ സഹ സംബുദ്ധൌ ഇത്യനേന ഉപധായാഃ ദീർഘേ സുപന്ഥാനി സുപഥി സുപഥീ സുപന്ഥാനി. പുനഃ ദ്വിതീയായാമപി സുപഥി സുപഥീ സുപന്ഥാനി. തതഃ ആസ് യൂഷ്വൽ ഭസംജ്ഞാ അസ്തി ചേത് തിലോപഃ പദസംജ്ഞാ അസ്തി ചേത് നലോപഃ. सुपथा सुपतिभ्याम सुपतिभिः सुपथे सुपतिभ्याम सुपतिभ्यः एटसेट्रा. सो नपुंसकलिङ्गः शब्दः. सो संबोधन प्रथमायाम एक्चुअली देयर आर टू फॉर्म्स फॉरगॉटन टू शो द अदर फॉर्म. सो सुप्रते परे लुक् भवति सोहु लुक् ततः नलोपः लुकानुप्रत्वात् आकारादेशः नास्ति सुप्रत्यये विहितेति न भवति. शि जश्यतोः आल्सो कवर्षस् सर्वनामस्थानत्वात् इकारस्य अकारादेशः अन्धादेशः उपधादीर्थश्च भवति. भसंज्ञा पक्षे भसंज्ञा एक्सिस्ट् नाट् ओन्लि हियर् बट् आल्सो from how except shast is she. So bhasyate lopaha itenena si lopaha. This is general karya. Haladishu nalopaha bhavati shatra padishu haladishu padasamyayam satram lopa kriyate. So that is about pathin shabda and its variance in strilinga and napumsakalinga. नकारान्तःपुल्लिङ्गः पञ्चन् शब्दः. पञ्चन् शब्दः नित्यं बहुवचनान्तः संख्यावाचकशब्दः. सो पञ्चन् इत्यस्मात् जस् प्रत्ययः क्रियते. श्नान्ता षट् इति संज्ञासूत्रम्. श्नान्ताः षट् इति पदद्वयम् बहुगणमतुडति संख्या इति सूत्रात् संख्या इति अनुवर्तते. शान्ता नान्ता च संख्या. श्नान्ता इत्यत्र षकारान्ता नकारान्ता षष्ठिः न श्रुत्वा च नकारसम्पन्नः. षकारान्ता नकारान्ता च संख्या षट् संज्ञा स्यात् इति सूत्रार्थः. एनी संख्यावाचक शब्द विच् इस् दि एंड इन ईदर ष और न विल बी कॉल्ड षट्. षट् इज अ संज्ञा. इट इज नॉट द नंबर षट्. It is a samya given to all numbers which end either in sha or na. Shadjholuk iti sutram purvameva adhitam. Kortaha Shadjholuk parayohu jashyatohu lubhavati iti sutram. Just and shas which follow a shadjholuk word will be deleted. Ranim panchan asthi shnanta shati makarantatvat. Since it's a makaranta, panchan सप्तम अष्टम नवम दशम. आफ्टर स्टार्टिंग फ्रॉम पंच ऑल नंबर आर नकारांत एक्सेप्ट शशु. शशु इति तो शकारांत. ऑल ऑफ देम हैव षट् संज्ञा. मेबी दैट्स व्हाई ही कॉल्ड देम अ षट्. श्नान्ता षट् इति षट् संज्ञा. ततः षड्धो लुक् इत्यनेन जसः लुक् भवति पञ्चन् इति रूपम्. कलोपप्रातिपदिकान्तस्य इति नकारस्य लोपे पञ्च. पञ्च पञ्च जसि शसि च. इदानीमस्मिन् सूत्रे केवलं श्नान्ता षट् इत्यस्ति संख्या इत्यनुवर्तते. संख्यावाचकशब्दः चेदेव षट् संज्ञा. विप्रुषः पामानः इति दीयते. षकारान्तः विप्रुषशब्दः. नकारान्तः पामन् शब्दः. अदर् षकारान्त जस्ट् सिम्पल् षकारान्त और् नकारान्त वर्ड् विल् नाट् गेट् షట్ సంజ్ఞ. సో దట్ ఇస్ వై విప్రుష్ కామన్ ఇది. సకారాంత నాంత చేసి సంఖ్యావాచక భావ జగహ లుక్ నాస్తి. ఇట్ ఇస్ హియర్ ద జస్ట్ ఇన్ ద అచ్ అహ విప్రుష్ అహ కామన్ అహ ఇట్ ఇస్ క్రియతే. జగహ లుక్ నాస్తి. రవిచంద్రన్ జీ సేస్ దేర్ ఆర్ సిక్స్ నంబర్ స్టార్టింగ్ ఫ్రమ్ పంచన్ యాక్చువల్లీ. దట్ ఇస్ వాట్ ఐ ద థాట్ విచ్ ఐ గాట్ సడన్లీ నౌ వాస్ దట్ when you are taking from 1 to 10, you have ekam dvi tri chatur. After that, all are chakarantas or nakarantas. Shnantaha shat, pancham shashu, Saptanashtam Navandasya. Maybe that is why he called himself a god. I suddenly had a thought, but I'm not sure if there is any pramana for that, so I guess it and that is not mentally. It could be a reason, he's just saying Krantaha Shet, all of them are. Is it? Oh, great. I have not, I have earlier wondered about it, but I could not find it in any Vyakhyana, so. Yeah, that's great. Okay, excellent. So I wondered why he would call them Shat, of all things, because Shat is another word, which is, it has Shat from here. It is sort of confusing, but yeah, it makes sense now. Anyway, coming back to Shat Samya. Shatani Sahasrani Ityatra Sannipata Parimhashaya Na Lukri Sarvanamasthana Sannipatena Kripatya Namaha Tad Avihata Katvat. Kotsaha Shata Shabdaha Athava Sahasra Shabdaha Akarantaha. Okay. So actually from these words till Dashan are Nakarantas. Afterwards it's all Nimshati Ityarabhya Ikarantaha Prayana Athava Takarantaha Punah Shata Ityarabhya Akarantaha Santhi. Shata Ityasmat Jasva Tehkriyate Jasyato Shihi Ityanena Shihi Shata I Ityasthite Napumsa Tasya Dhalataha. If you remember your Prakriya from Ajanta Napumsa Kalinga Ajantat Jhalantadva Napumsa Kat Numagamaha Kriyate Shatam I Iti Bhavati. Janin Prashnaha Nakarantatva Vati. Num belongs to the Anga, so it says Shatam is Nakaranta. Nakaranta Svata Shnanta Shati Ityanena Shatsamya Bhavati. Shatsamya Bhavati Chete Shadhu Luk Ityanena Jasaha Luk Syat Iti Akshepaha. She deletes this because it is now Nakaranta and has Shatsamya. Tada Uchete Sannipata Parivhashaya Na Bhavati. Sannipata Parivhasha Virodha. Katham Sannipata Parivhasha Virodha. Angasya Sarvanama Sthanasya Sannipatam Ashritya Pravrataha Numagamaha. The nimitta for Numagama, that is Napumsaka Siddhalasaha, is Sarvanamasthana. Sarvanamasthane pare Angasya Jalantasya Ajantasya Angasya Numagamaha Bhavati. Idani, yadi Satsamyaya Sarvanamasthana meva lukyate. If the just itself is removed by look, the Sarvanamasthana is lost. Okay? So, Sannipatam Ashritya Pravrataha Numagamaha, Shatva Sampadana Dwara, by being the nimitta for Satsamya, Sarvanamasthanasya lukam prati nimittam na bhavati. So it does not wish to delete, be the nimitta for deletion of the Sarvanamasthana on which it was dependent. Ataha shatani ityatra jasaha luk nasti shatan ityasthate Sarvanamasthane sa sambuddha vachyanena upadhadirke shatani evam sahasrani. Shatani sahasrani is one of the main examples for Sannipata Paribhasha. This is given in the Mahabhashya. Panchabhihi panchabhyaha sarvatra panchan bhishtitishtite nalopakrata karikantasya sinena nalopaha bhavati. Panchabhihi panchabhyaha panchabhyaha shatchitabhyascha iti nuch bhishtite purvam adhitam chatur shabde shatsangyakebhyaha jaturashta parasya amaha nudagamasyat iti sutrarthaha. Panchan aam ityasti nima sahasana jyapo nuta ityanena na praptavati sasam sattvam nasti nalopasya nimittam api nasti. It is not padasamya, so na will not be deleted. He will not get upadhadita because this is not sarvanamasthana, so no other karya will happen here. Idanim shat chaturbhyascha ityanena nutta bhavati. Panchan nu aam ityasti nopadhayaha iti sutram. Na upadhayaha iti paladvayam asti angasya ityadhikaraha dhanopaya purvasya dirghonaha iti kaha dirghaha iti navartate nami ityate navartate. So this is a sutra which follows nami. Nami pare angasya dirghaha iti nantaram na upadhayaha iti bhavati. Atra na ityasya na iti nartha artha na bhavati iti nartha na iti lukta shashthikam. Sutaha nasya iti athava naha iti bhavet nakarasya ityattaha
लुप्तषष्ठीकं तत्र षष्ठी विभक्तिः लुप्ता अस्ति न इत्यस्मात् प्रातिपदिका नस्य इति भवेत् कदाचित् सूत्रेषु एवं लुप्त विभक्तिकाः निर्देशाः भवन्ति इन् सूत्र विभक्ति इस् नाट् हेड् ओन्ली प्रातिपदिका हि टेक्स् ओन्ली द प्रातिपदिका सो न इति लुप्तषष्ठीकम् अङ्गस्य इत्यधिकतस्य विशेषणम् नकारान्तस्य अङ्गस्य इत्यर्थः नान्तस्य उपधायाः दीर्घः स्यात् नामि परे पञ्चन् नाम नोपधायाः नकारान्तस्य उपधादीर्घः क्रियते सो पञ्चान् नाम इति भवति इदानीं नाम इत्यस्य हलादित्वात् सादृश्यकरणस्थाने इत्यनेन पदसंज्ञा अस्ति पदसंज्ञायां नलोपप्रातिपदिकान्तस्य इत्यनेन नकारस्य पञ्चन् प्रातिपदिकस्य नकारस्य लोपः पञ्चानाम् इति रूपम् यदो नुडागम यदु उपधादीर्घ अण्ड् देन् यु डिलीट् द ओरिजिनल् नकार सो द प्रयोजन आफ् नुडागम इस् बोत् टु गेट् दिस् नोपधायाः विल् अप्लै ओन्ली वेन् देर् इस् नामि नकार विल् बि डिलीटेड् आल्सो वेन् देर् इस् सो इवन् दो देर् वास् ओरिजिनली नकार वि आर् ब्रिङ्गिङ्ग् इन् अ न्यू नकार अण्ड् सेण्डिङ्ग् अवे द ओल्ड् वन् पञ्चानाम् पञ्चसु पञ्चन् सु नलोपः पञ्चसु सो पञ्चन् शब्दः नित्यं बहुवचनान्तः षष्ठतोः लुग् भवति पुनः नलोपः तदर्थम् अस्ति किम् सुप्तिगन्तं पदम् द ओरिजिनल् पदस्वामि वन्स् नो 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 हियर् इट् इस् स्वादिशोसर्वनामस्थाने पञ्चानाम् इत्यत्र देन् फालोड् बै हलादिविभक्ति इत्यस्य पदसंज्ञा पञ्चन् नाम् जस्ट् लैक् यु डू से पञ्चन् भिस्त् इत्यस्य टु कैण्ड्स् आफ् पदसंज्ञा पञ्चभिः पञ्चभ्यः एवं पञ्चानाम् इत्यत्र हलादौ प्रत्यये परतः स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा पञ्च इत्यत्र जसि शशि च प्रत्यये लुप्ते सुप्तिनन्तं पदम् इत्यनेन पदसंज्ञा दशसोः लुप् भवति हलादिषु न लोपः पञ्चभिः पञ्चभ्यः इत्यादिषु आम् इन् आम् यु हाव् लुडागम उपधादीर्घ अण्ड् न लोप परमपञ्च परमपञ्चानाम् निगोतु तदन्त तदन्तेषु भवति वा भवन्ति वा एतानि कार्याणि इति पश्यामश्चेत् परमाश्चते पञ्च च सो वेन् इदो कर्मधारय प्राधान्य अकौट् पञ्च सङ्ख्या गेट् प्राधान्य तदा तु सर्वं भवति लुक् अपि भवति लुक् अपि भवति लुक् नाम षड्जो लुक् इति लुक् भवति एवं लुक् अपि भवति षट् चतुर्थश्च इति मुडागमोऽपि भवति गौणस्य तु न लुङ्टौ when it is gauna when sankhyavachaka shabda becomes gauna the look and the nut will not happen so again this is an exception where tadante bhavati tadantasya bhavati ata eva parama pancha ityasya bhavati kintu gaunatve na bhavati this is something which is common to all sankhyavachaka gaunatve tasya shat samyayah nimittam shat samyayah is more basically sankhyavachaka gaunatve tasya tadvachakatvam na bhavati like say when you are saying प्रियाः पञ्च यस्य सः द फैनल् वर्ड् प्रियपञ्चन् डस् नाट् इण्डिकेट् फैव् इट् हेस् नो रिलेशन् टु फैव् एस् इन् परमपञ्च स्टिल् इण्डिकेट् फैव् पीपल् यदा प्राधान्यं भवति तदा सङ्ख्यायाः प्राधान्यम् अस्ति इत्यतः तत्र पञ्चत्वम् इति सङ्ख्यात्वं भवति किन्तु यदा गौणत्वं भवति निमित्त इट्सेल्फ् इस् लास्ट् सो जनरली द कार्यस् विच् आर् फार् सङ्ख्यावाचकात् पञ्च अथवा षट् सम्यकेभ्यः यानि कार्याणि विधीयन्ते तानि गौणत्वे न भवन्ति अतः इदानीं प्रियपन्थम् इत्यस्ति चेत् तस्य बहुवचनान्तत्वमपि नास्ति, इट् इस् नाट् नित्य बहुवचनान्त. सो प्रियपञ्चन् इति क्रियाः पञ्च यस्य सः इति बहुव्रीहिः राजन् शब्दवत् रूपाणि भवन्ति. जस्ट् लैक् यु हाव् राजा राजानौ राजानः, तथा प्रियपञ्च प्रियपञ्चानौ प्रियपञ्चानः इति जसः लुक् नास्ति. पुनः प्रियपञ्च्यां लुट् अपि नास्ति इति दर्शयति. प्रियपञ्चन् आम् इत्यस्ति, अलोपो नः इत्यनेन अकारस्य लोपः. सो प्रियपञ्च नु आम् इत्यस्ति, नुरागमः नास्ति. दिस् इस् जस्ट् जायिनिङ्ग् इट्. प्रियपञ्च नु इति स्थिते मकारस्य सूत्रेण ञकारः भवति, सर्गपञ्चमाक्षरः. सो यु सी देर् आर् टु ञकार विथ् अ सकार इन् बिट्वीन्. I don't ask me how to pronounce this. Priyapanchyam, I am not sure. Kintu rupe tu sarvatra, starting from shat, yatra yatra allopaha, tatra dvayoho nyakarayoho madhye sakaraha halati. Yadi asya idri sasri parasya prayoga hasti, sadhishaha bhavati. Priyapanchyam iti. Evam saptan navan dashan. Anye e makarantaha santi. पञ्चन् सप्तन् नवन् दशन् इत्येतेषां पञ्चशब्दवदेव रूपाणि भवन्ति. अष्टन् शब्दस्य तु विशेषः अस्ति. अष्टम् इस् अ वेरि इट् हेज् स्पेशल् कार्यस् फोर् इट् सेल्फ्. सो ऐ स्टाप् हियर् टुडे. ऐ विल् स्टार्ट् वित् अष्टन् शब्द इन् द नेक्स्ट् क्लास्. देयर् इस् विचार् आन् वाट् हेपन्स् टु सिम्पल् अष्टन् अण्ड् वाट् हेपन्स् इन् अगेन् समास. समासे किं भवति, प्राधान्ये किं भवति, गौणत्वे किं भवति इति महान् विचारः अस्ति. तत्तु अग्रिमवर्गे पश्यामः. हाम् सेण्टेन्स् आम् ओके. ऐ केनाट् अप्लै नामि हियर् बिकास् नामि परे अजन्तस्य अङ्गस्य दीर्घः स्यात्. यदा अङ्गम् अजन्तं भवति तदैव दीर्घः भवति. नकारलोपः वै दिस् सूत्र नोपधायाः पञ्चन् नाम् इत्यस्ति, नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपे कृते नामी अजन्तत्वमस्ति, नामी इति दीर्घः भवति. किन्तु नलोपः असिद्धः. नलोपस्तुप्सरगण्या सुद्विधिष्पते सुद्विधौ. अयं सुद्विधिः नामि परे. सो वेन् चेण्डु नलोप पञ्च नाम् इति भवति, किन्तु दीर्घं कर्तुं न शक्नुमः. वि केनाट् अप्लै नामि बिकास् नलोप वुड् बि असिद्ध. तद् रूप वुड् बि पञ्च नाम्. स्पेशलि से एन् उपधादीर्थ वेन् इट् इस् नकारान्त एण्ड् देन् डिलीट् द नकार. दीर्घविद्धनकार बिकास् इट् इस् मकारान्तस्य उपधायाः. वेन् इट् इस् मकारान्त उपधादीर्घ. सो एनिवे नलोप इस् असिद्ध. सो दिस् विल् अप्लै फस्ट् एण्ड् देन् यु डिलीट् द नकार. सो यु हाव् पञ्चानाम्. तेनाक्षरसमां नायम् अधिगम्य महेश्वरात् सूक्ष्मं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वक्षिकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्तु मुनित्रयम्. मुनित्रयं नमस्कृत्य ईश्वरि साध्य च वैयाकरणसिद्धान्तकौमुदीहं विरच्यते.